एषा रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः सर्वकारेण नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य उपाध्यक्षम् वामदेव गौतमम् राष्ट्रियसभा सदस्यपदे मनोनेतुम् राष्ट्रपतेः समक्षम् परामर्शनाय निर्णीतम् वर्तते। प्रधानमन्त्री निवासे बालवाटार स्थाने ह्यः उपविष्टेन मन्त्रिपरिषदः उपवेशेन नेतारं गौतमं राष्ट्रियसभा सदस्यपदे मनोनयनाय राष्ट्रपतेः समक्षं परामृष्टुं निर्णीतमिति भूमिव्यवस्था सहकारी विपन्नता निवारण मन्त्री पद्मा कुमारी अरियालः ज्ञापयत्। अस्यैव भाद्रस्य अष्टादशे दिवसे उपविष्टेन नेकपादलस्य सचिवालये उपवेशेन नेतारं गौतमं राष्ट्रियसभा सदस्ये नेतुं निर्णीतमासीत्। एवमेव मन्त्रिपरिषदः उपवेशेन आगामिनः आश्विन मासस्य पञ्चम दिवसात् स्वास्थ्यस्य मापदण्डान् पालयित्वा वायुसेवां दीर्घदूर्याः बसयानानि च सञ्चालयितुं निर्णीतमस्तीति मन्त्री अरियालः अज्ञापयत्। राष्ट्रपतिः विद्यादेवी भण्डारी भासते बालबालिकानां संरक्षणे विकासे च ध्यानं दत्त्वा समृद्धो नेपालः सुखिनो नेपालिनश्चेति राष्ट्रियाकांक्षां पूरयितुं सर्वेषां प्रतिबद्धतायाः आवश्यकता वर्तते। गतदिने बालदिवसस्य अवसरे शुभकामना सन्देशं ददति राष्ट्रपतिः भण्डारी एतदभाषत। एतस्य दिवसस्य अवसरे महिला बालबालिका ज्येष्ठ नागरिक मन्त्रालयेन आयोजितं कार्यक्रमं संगणकीय मेलनस्य माध्यमेन सम्बोधयन् प्रधानमन्त्री केपी शर्मा ओली अवदत् बालबालिकासु वर्गीयस्य जातीयस्य वा लैंगिकस्य कस्यापि प्रकारस्य भेदभावस्य अनुभवं निवार्य तासां सर्वाङ्गीण विकासाय समानावसरं प्रदातुं सर्वकारः सक्रियो वर्तते। प्रधानमन्त्री ओली बालबालिकानाम् अधिकार हित संरक्षणानां कृते सर्वकारेण सह मिलित्वा कार्यं विदधानाभ्यः संघ संस्थाभ्यो धन्यवादं व्याहरन् अवोचत् बालबालिकानां पक्षे कार्यं कुर्वतीभ्यः संघ संस्थाभ्यः सर्वकारः सहयोगं विदधाति। महिला बालबालिका ज्येष्ठ नागरिक मन्त्री पार्वत गुरूङ अकथयत् बालबालिकाः राष्ट्रस्य भविष्य निर्माणाय आधारशिलाः सन्ति हेतोः यस्यां कस्यामपि अवस्थायाम् एतासां हिताधिकारौ रक्षितुं सर्वकारः सक्रियो वर्तते। एतस्मिन् एव अवसरे ह्य एव मदन भण्डारी प्रतिष्ठानेन आयोजितायां संगणकीयायाम् अन्तरक्रियायां मन्त्री गुरूङ अब्रवीत् महामार्याः कारणेन बालबालिकासु उत्पन्नं प्रभावं विचार्य आगामिनां कार्यक्रमाणां निर्धारणम् आवश्यकमस्ति। पश्चात्तन चतुर्विंशत्यां घण्टास् कोरोना संक्रमणेन काष्ठमण्डप उपत्यकायाः अष्टाभिः जनैः सह आराष्टं पञ्चदश जनाः मृताः सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डा जागेश्वर गौतमः कोरोना संक्रमणस्य कारणेन काष्ठमण्डप उपत्यकायाः अष्टाभिः जनैः सह दश पुरूषाः पञ्च महिलाश्चेत् च मृतेति अज्ञापयत्। नेपाले संक्रमणेन मृतानां जनानां अद्यावधि समग्र संख्या शतत्रयंषष्टिश्च प्राप्तास्ति। संक्रमणेन ह्यः काष्ठमण्डपस्य षट् मोरङ जनपदस्य द्वौ भक्तपुर ललितपुर रामेछाप गोर्खा नवलपरासि पर्सा कपिलवस्तु जनपदानां प्रतिजनपदम् एकश्च जनाः मृताः इति प्रवक्ता डा गौतमः अज्ञापयत्। गतदिने अतिरिक्तेषु सहस्रे शते सप्तत्यांश जनेषु कोरोना संक्रमणं पुष्टीभूतमस्ति। आराष्टं गतदिने संक्रमणात् अष्टौ शतम् उनाशीतिश्च जनाः संक्रमणात् मुक्ताः सन्तीति प्रवक्ता डा गौतमः अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन कोरोना संक्रमणस्य पीसीआर विधिनः परीक्षणाय निर्धारिता सहस्रद्वयात् अधिकानि रूप्यकाणि न ग्रहीतुं निर्दिष्टमस्ति। स्वास्थ्य मन्त्रिणा भानुभक्त ढकालेन ह्यो मन्त्रिस्तरीय निर्णयं विदाय न्यूनीकृतेन मूल्येन पीसीआर परीक्षणं कारयितुं निर्दिष्टमस्तीति मन्त्रालयेन ज्ञापितं वर्तते। संयुक्त राष्ट्रसंघस्य आह्वाने शान्तिस्थापनायै लीबिया देशं प्रस्थीयमानेषु कतिपय सैनिकेषु कोरोना विषाणोः पुष्टेः अनन्तरं ह्यः तत्र प्रस्थीयमानम् उड्डयनं स्थगितकृतं वर्तते। शान्तिस्थापनायै लीबिया देशं प्रस्थीयमानानां षोडशोत्तर शत सैनिकानां मध्ये पञ्चत्रिंशतोऽपि अधिकेषु सैनिकेषु कोरोना पुष्टेः अनन्तरं ह्यः निर्धारितम् उड्डयनं स्थगितकृतम् इति नेपाली सेनायाः प्रवक्ता सन्तोष वल्लभ पौडेलः अज्ञापयत्। भौतिक पूर्वाधार यातायात मन्त्री वसन्त कुमार नेवाङ निगदति यातायात साधनेषु देवनागरिकी लिपेः संस्थापनाय आवश्यकी प्रक्रिया प्रारब्धा वर्तते। नेपाल प्रज्ञा प्रतिष्ठानस्य पक्षतः ह्यः अर्पितं ध्यानाकर्षण पत्रं गृह्णन् मन्त्री नेवाङ प्रधानमन्त्रिणः केपी शर्मा ओलिनः एतस्मिन् विषये निदेशनं निर्देशनम् प्राप्तमस्ति। आत्मना च यातायात व्यवस्था विभागस्य महानिर्देशकः वैधानिक प्रक्रियां प्रपूर्य अधिनियमे संशोधनम् विधा तव्यम् सत् ताम् प्रक्रियामपि अग्रे वर्धयितुम् निर्दिष्टोऽस्तीति अवदत्। सर्वोच्च न्यायालयेन सर्वकारेण विहितं भूमेः प्रखण्डनस्य अनुमतेः निर्णयं न क्रियान्वेतुम् अल्पकालिकः अन्तरिम आदेशः प्रदत्तोऽस्ति। सर्वोच्च न्यायालयस्य न्यायाधीशस्य सुषमालता माथेमा विधायाः एकल न्यायपीठेन ह्यो भूमेः प्रखण्डीकरणस्य निर्णयं न क्रियान्वेतुम् अल्पकालिकः अन्तरिम आदेशः प्रदत्तोऽस्ति। भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्रालयं विपक्षिणं कारयित्वा पञ्जीकारितस्य न्यायिक प्रकरणस्य श्रवणं विदधानेन सर्वोच्च न्यायालयेन निवेदकः सर्वकारश्च उभयं पक्षद्वयम् आगामिनः आश्विनस्य अष्टमे दिवसे विमर्शनाय आहूतमस्तीति न्यायालयस्य सहायक प्रवक्ता देवेन्द्र ढकालः अज्ञापयत्। राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्षः कमल थापा दलस्य केन्द्रीय सदस्यैः सिद्धान्तेषु कस्यामपि अवस्थायां संविधान न कर्तुम् परामृष्टो वर्तते। धुम्बा राई वर्तिनी केन्द्रीय कार्यालये ह्य उपविष्टे अनौपचारिकोपवेशे काष्ठमण्डपोपत्यकायाम् उपलब्धाः केन्द्रीय सदस्याः सैद्धान्तिकेषु वैचारिकेषु च पक्षेषु संविधान कर्तुम् न शक्यते इत्यत्र बलम् प्रादुः। उपवेशे अध्यक्ष थापा संगठनम् केन्द्रीकृत्य आगामि निर्वाचनम् लक्ष्यीकृत्य जनपदेषु सांगठनिक गतिविधीनाम् संचालनाय नेतृन् अन्वरुणात्। सिन्धुपाल्चोक जनपदस्य बारविषे नगरस्य सप्तमवडा क्षेत्रस्य घुम्था स्थाने भूस्खलनेन पूरणात् विलुप्तेषु जनपदेषु अतिरिक्तस्य जनद्वयस्य शवो प्राप्तौ स्तः। ह्य घुम्थाङ वीरखर्क स्थानस्य द्वाविंशति वर्षीयस्य कुमार विक इत्यस्य एकविंशति वर्षीयायाः सोनिया विक इत्यस्याश्च शवप्राप्तेः अनन्तरम् भूस्खलनेन पूरणात् मृतानाम् जनानाम् संख्या त्रयोदश प्राप्ता अस्ति इति समाचारः।